ಸಮಶ್ರವಸ್ತಮಂ ಜ್ಯೇಷ್ಠರಾಜಂ ಬ್ರಹ್ಮಣಾಂ ಬ್ರಹ್ಮಣಸ್ಪತ ಆನ ಶೃಣ್ವನ್ನೋ ದಿವ್ಯಃ ಸೇದಸಾದನಂ ಪ್ರಣೋ ದೇವೇ ಸರಸ್ವತೀ ವಾಜೇರ್ವಾಜಿನೀವತೆ ಧೇನಾಮವಿತ್ರಯವತೋ ಗಣೇಶಾಯ ನಮಃ ಸರಸ್ವತ್ಯೈ ನಮಃ ಶ್ರೀ ಗುರುಭ್ಯೋ ನಮಃ ಹರಿ ಓಂ ಓಂ ನಮೋ ಭಗವತೆ ರುದ್ರಾಯ ಓಂ ನಮಸ್ತೆ ರುದ್ರಮನ್ಯವ ಉಸೋತಗಿಷವೇ ನಮಃ ನಮಸ್ತೆ ಅಸ್ತು ಧನ್ವನೆ ಬಾಹುಭ್ಯಾಮುತತೆ ನಮಃ ಯಾತಗಿಷು ಶಿವತಮಾ ಶಿವಂ ಬಭೋವತೆ ಧನು ಶಿವಾಚರವ್ಯಾಯಾತವತಯಾನೋ ರುದ್ರಮೃಡಯಾ ಯಾತೆ ರುದ್ರ ಶಿವಾ ತನೂರ ಘೋರಾ ಪಾಪಕಾಶಿನಿ ತಯಾನಸ್ತನು ವಾಶಂತಮಯಾ ಗಿರಿಶಂತಾಭಿಜಾಗಶಿ ಯಾಮಿಷುಂ ಗಿರಿಶಂತ ಹಸ್ತೇ ಬಿಭಷ್ಯಸ್ತವೇ ಶಿವಾಂ ಗಿರಿತ್ರತಾಂ ಕುರು ಮಾಹಿ ಗುಂಸಿ ಪುರುಷಂ ಜಗತ್ ಶಿವೇನ ಭಜಸಾತ್ವಾ ಗಿರಿಶಾಚ್ಛಾವಲಾಮಸಿ ಯತಾನಃ ಸರ್ವವಿಜ್ಜಗತ ಯಕ್ಷ್ಮಗುಂ ಸುಮನಾ ಅಸತ್ ಅಧ್ಯವೋಚದಿ ವಕ್ತಾ ಪ್ರಥಮೋ ದೈವ್ಯೋಭಿಷಕ ಅಹೇಕಶ್ಚ ಸರ್ವಾಗಾಂಜಂಭಯಂ ಸರ್ವಾಗಾಶ್ಚ ಯಾತು ಧಾನ್ಯಃ ಅಸೋ ಯಸ್ತಾಮ್ರೋ ಅರುಣ ಉತ ಭವ್ರೋಃ ಸುಮಂಗಲಃ ಯೇ ಚೇವಾಗುಂ ರುದ್ರ ಅಭಿತೋ ದಿಕ್ಷಶ್ರಿತಾತ್ ಸಹಸ್ರಶೋ ವೈಶಾಗುಂ ಹೇಡಯೀಮಹೇ ಅಸವ್ಯೋಪಸರ್ಪತಿ ನೀಲಗ್ರೀವೋ ವಿಲೋಹಿತಃ ಉದೈನಂ ಗೋಪಾ ಅದೃಶನ್ನದೃಶನ್ನು ಜಹಾರ್ಯಃ ಉದೈನಂ ವಿಶ್ವಾಭೂತಾನಿ ಸದೃಷ್ಟೋ ಮೃಳಯಾತಿನಃ ನಮೋ ಅಸ್ತು ನೀಲಗ್ರೀವಾಯ ಸಹಸ್ರಾಕ್ಷಾಯ ಮೀಢುಷೇ ಅಧೋಯೇ ಅಸ್ಯ ಸತ್ವಾನೋಹಂ ದೇಭ್ಯೋ ಕರಂ ನಮಃ ಪ್ರಮುಂಚ ಧನ್ವನಸ್ತ್ವಮುಭಯೋರ್ರಾತ್ರಿಯೋರ್ಜ್ಯಾಂ ಯಾಶ್ಚ ತೇ ಹಸ್ತ ಇಷವ ಪರಾತಾ ಭಗವೋ ವಪ ಅವತತ್ಯ ಧನುಸ್ತ್ವಗುಂ ಸಹಸ್ರಾಕ್ಷಶತೇಷು ಧೇ ನಿಷೇರ್ಯ ಶಲ್ಯಾನಾಮುಖಾ ಶಿವೋ ನ ಸುಮನಾಭವ ವಿಜ್ಯಂ ಧನುಃ ಕಪರ್ದಿರೋ ವಿಶಲ್ಯೋ ಬಾಣವಾಗುಂ ಅನೇಶನ್ನಸ್ಯೇಷವ ಆಪುರಸ್ಯ ನಿಷಂಗತಿಃ ಯಾತೇಹೇ ತಿರ್ಮೀಡುಷ್ಟಮಹಸ್ತೇ ಬಭೂವತೆ ಧನುಃ ತಯಾಸ್ಮಾನ್ ವಿಶ್ವತಸ್ತ್ವಮಯಕ್ಷ್ಮಯಾ ಪರಿಭುಜ ನಮಸ್ತೆ ಅಸ್ವಾಯುಧಾಯಾನಾತಾಯ ದೃಷ್ಟವೇಗೆ ಉಭಾಭ್ಯಾಮುತತೆ ನಮೋ ಬಾಹುಭ್ಯಾಂ ತವ ಧನ್ವನೆ ಪರಿತೇ ಧನ್ವನೋ ಹೇತಿರಸ್ಮಾನ್ ವೃಣಕ್ತು ವಿಶ್ವತಃ ಅಧೋ ಯಿಷು ದಿಸ್ತವಾರೇ ಆತ್ಮನ್ನಿರೇಹಿತಂ ನಮಸ್ತೆ ಅಸ್ತು ಭಗವನ್ ವಿಶ್ವೇಶ್ವರಾಯ ಮಹಾದೇವಾಯ ತ್ರ್ಯಂಬಕಾಯ ತ್ರಿಪುರಾಂತಕಾಯ ತ್ರಿಕಾಗ್ನಿಕಾಲಾಯ ಕಾಲಾಗ್ನಿರುದ್ರಾಯ ನೀಲಕಂಠಾಯ ಮೃತ್ಯುಂಜಯಾಯ ಸರ್ವೇಶ್ವರಾಯ ಸದಾಶಿವಾಯ ಶ್ರೀಮನ್ಮಹಾದೇವಾಯ ನಮಃ ನಮೋ ಹಿರಣ್ಯ ಭಾಗವೇ ತೇ ನಾನ್ಯೇ ದಿಶಾಂಚ पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्य पशूनां पतये नमो नमः सस्मिन् जगाय कृषिमते पथीनां पतये नमो नमो वप्लुषाय विव्याधिनेनानां पतये नमो नमो हरिकेशायोपवीतिने पुष्टानां पतये नमो नमो भवस्य हेत्यै जगतां पतये नमो नमो रुद्राय तताविने क्षेत्राणां पतये नमो नमः सूताय हन्त्याय वनानां पतये नमो नमो रोहिताय स्तपतये वृक्षाणां पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नमो भुवन्तये वारिवत्कृतायौषधीनां पतये नमो नम उच्चैर्घोषाय क्रन्दयते पत्तीनां पतये नमो नम कृष्णवेदाय धावते सत्त्वनां पतये नमः नमः सहमानाय निव्याधिन आव्याधिनीनां पतये नमो नमः रघुभाय निषङ्गिणेस्तेनानां पतये नमो नमो निषङ्गिणयिषुधिमते तस्कराणां पतये नमो नमो वञ्चते परिवञ्चते सायोनां पतये नमो नमो निचेरवे परिचरायारण्यानां पतये नमो नमः श्रीकाव्यभ्यो जिगागुंसद्भ्यो मुष्टतां पतये नमो नमो सिमद्भ्यो रक्तं चरद्व्यप्रकृन्दानां पतये नमो नम उष्णीषिणे गिरिचराय कुलुञ्जानां पतये नमो नम यिषुमद्भ्यो धन्वाविभ्यश्च वो नमो नम आतन्वानेभ्य प्रदिदधानेभ्यश्च वो नमो नम आयच्छद्भ्यो विसृजद्भ्यश्च वो नमो नमोऽस्यद्भ्यो वेद्यभ्यश्च वो नमो नम आसीनेभ्य शयानेभ्यश्च वो नमो नम स्वपद्भ्यो जाग्रभ्यश्च वो नमो नम तिष्ठद्भ्यो धावभ्यश्च वो नमो नम सभाभ्यः सभापतिभ्यश्च वो नमो नमो अश्वेभ्योऽश्वपतिभ्यश्च वो नमः नम आव्याधिनेभ्यो विविध्यन्तेभ्यश्च वो नमो नम उगणाभ्य सृगुम्भदेभ्यश्च वो नमो नमो गृत्सेभ्यो गृत्सपदेभ्यश्च वो नमो नमो व्रातेभ्यो प्रातपदेभ्यश्च वो नमो नमो गणेभ्यो गणपदेभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः चुल्लकेभ्यश्च वो नमो नमो रथेभ्यो रथेभ्यश्च वो नमो नमो रथेभ्यो रथपतिभ्यश्च वो नमो नमः सेनाभ्यः सेनानिभ्यश्च वो नमो नमः शत्रुभ्यः सङ्ग्रहीतृभ्यश्च वो नमो नमः स्तक्षद्भ्यो रथकारेभ्यश्च वो नमो नमः कुलालेभ्यः कर्मारेभ्यश्च वो नमो नमः पुञ्जिष्ठेभ्यो निषादेभ्यश्च वो नमो नम यशुकृद्भ्यो धन्वकृद्भ्यश्च वो नमो नमो मृगयोभ्यश्वनेभ्यश्च वो नमो नमः स्वभ्यश्वपतिभ्यश्च वो नमः namo bhavaya cha rudraya cha nama sarvaya cha pashupataye cha namo nilagrivaya cha shitikandhaya cha nama kapardine cha vyuktakeshaya cha nama sahasrakshaya cha shatadhanvane cha namo girishaya cha shipivishtaya cha namo meduttamaya cha shumate cha namo rasvaya cha vamanaya cha namo brihate cha vakshiyate cha namo vriddhaya cha samridhvane cha namo agriyaya cha pradhavaya cha nama aashave cha jiraya cha nama shikriyaya cha shibhyaya cha nama orbhyaya cha vatsvanyaya cha nama Srotasyaya cha dvepyaya cha namo jeshthaya cha kanishthaya cha nama urvajaya cha parajaya cha namo madhyavaya cha pagalbhaya cha namo jaganyaya cha buddhiyaya cha nama Sopyaya cha pratisadhyaya cha namo yamyaya cha kshemyaya cha nama urvatyaya cha ghalyaya cha nama slokyaya cha vasanyaya cha namo vanyaya cha kakshaya cha nama sravaya cha pratishravaya cha nama ashushenaya cha ashuradhaya cha nama Shuraya cha vabindate cha namo varmine cha varodhine cha namo bilmine cha kavatine cha namo srutaya cha srutasenaya cha namo dundabhyaya cha kananyaya cha namo drishnave cha pramrishaya cha namo dutaya cha Tahitaya cha namo nishangine che shudhimate cha nama Sishnesha vecha yudhine cha nama Swayudhaya cha sudhanvane cha nama Srutyaya cha patyaya cha nama Katyaya cha nipyaya cha nama Sodhyaya cha sadat Yaya cha namo natyaya cha vaishantaya cha nama kopyaya cha vatyaya cha namo varshyaya cha varshyaya cha namo meghyaya cha vidyutyaya cha nama indriyaya cha tapyaya cha namo vatyaya cha reshmiyaya cha namo Vastavyaya cha vastupaya cha Om Hara 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 Om Namassomaya cha rudraya cha nama Tamraya cha runaya cha nama Shangaya cha pashupataye cha nama Ugraya cha bhimaya cha namo Agre vadhaya cha dure vadhaya cha namo Antre jahaniyate cha namo Vrikshebhyo harikeshebhyo nama Taraya nama Shambhave cha mayobhave cha nama Shankaraya cha mayaskaraya cha nama Shivaya cha shivataraya cha nama Tirthyaya cha kodhyaya cha nama Padhyaya cha vadhyaya cha nama Pratharanaya chottaranaya cha nama Atadhyaya cha ladhyaya cha nama Shashtyaya cha bhenyaya cha nama Sikathyaya cha pravahyaya cha Nama hirinyaya cha prapatyaya cha nama Kegumshilaya cha kshayanaya cha nama Kapadine cha pulattaye cha namo Goshtyaya cha ಶಕ್ತ್ಯಾಯ ಚ ನಮಃ ಸಲ್ಪ್ಯಾಯ ಚ ಕೇಕ್ಯಾಯ ಚ ನಮಃ ಕಾಟ್ಯಾಯ ಜಗತ್ಪರೇಷ್ಠಾಯ ಚ ನಮೋ ಹೃದಯ್ಯಾಯ ಚ ನಿವೇಶ್ಯಾಯ ಚ ನಮಃ ಪಾಗುಂಧವ್ಯಾಯ ಚ ರಜಸ್ಯಾಯ ಚ ನಮಃ ಶುಷ್ಕ್ಯಾಯ ಚ ಹರಿತ್ಯಾಯ ಚ ನಮೋ ಲೋಪ್ಯಾಯ ಚೋಲಪ್ಯಾಯ ಚ ನಮಃ ಊರ್ಜ್ಯಾಯ ಚ ಸೌರ್ಮ್ಯಾಯ ಚ ನಮಃ ಪರ್ಣ್ಯಾಯ ಚ ಪರ್ಣಚದ್ಯಾಯ ಚ ನಮೋ ಪಗುರಮಾಣಾಯ ಚಾಭಿಗ್ರತೆ ಚ ನಮಃ ಆಖಿದತೆ ಚ ಪ್ರಖಿದತೆ ಚ ನಮೋ ಭಕ್ತಿರಿಕೇಭ್ಯೋ ದೇವಾನಾಗಂ ಹೃದಗೇಭ್ಯೋ ನಮೋ ವಿಕ್ಷೇಣಗೇಭ್ಯೋ ನಮೋ ವಿಚಿನ್ಮತ್ಕೇಭ್ಯೋ ನಮ ಆನಿರ್ಹತೆಭ್ಯೋ ನಮ ಆಮೀವತ್ಕೇಭ್ಯಃ ದ್ರಾಪೇ ಅಂಧಸತ್ಪದೇ ದರಿದ್ರನ್ನೀಲಲೋಕಿತಾ ಏಷಾಂ ಪುರುಷಾಣಾಮೇಷಾಂ ಪಶೂನಾಂ ಮಾಭೇರ್ಮಾರೋ ಮೋಗೇಶಾಂ ಕಿಂಚನ ಮಮತ ಯಾತೇ ರುದ್ರ ಶಿವಾ ತನೋ ಶಿವಾ ವಿಶ್ವಾಮಭೇಷಜೆ ಶಿವಾ ರುದ್ರಸ್ಯ ಭೇಷಜೆ ತಯಾನೋ ಮೃಡ ಜೀವಸೇ ಶಿವಾಗುಂ ರುದ್ರಾಯ ತಮಸೇ ಕಪರ್ದಿನೇ ಕ್ಷಯದ್ವೀರಾಯ ಪ್ರಬಲಾಮಹೇ ಮತಿಂ ಯಥಾ ನಶ್ಯಮಸದ್ವಿಪದೇ ಚತುಷ್ಪದೇ ವಿಶ್ವಂ ಪುಷ್ಟಂಗ್ರಾಮೇ ಅಸ್ಮಿನ್ನನಾತುರಂ ಮೃಡಾನೋ ರುದ್ರೋತನೋ ಮಯಸ್ಕದ ಕ್ಷಯದ್ವೀರಾಯ ನಮಸಾ ವಿಧೇಮತೆ ಯಚ್ಚಂ ಚಯೋಶ್ಚ ಮನುರಾಯ ಜೇ ಪಿತಾ ತದಶ್ಯಾಮತಪ ರುದ್ರ ಪ್ರಣೀತೋ ಮಾನೋ ಮಹಾಂತಮುತಮಾನೋ ಅರ್ಭಗಂ ಮಾನ ಉಕ್ಷಂತಮುತಮಾನ ಉಕ್ಷಿತಂ ಮಾನೋ ವಧೇ ಪಿತರಂ ಮೋತ ಮಾತರಂ ಪ್ರಿಯಮಾನಸ್ತನುವೋ ರುದ್ರರೇರಿಷಃ ಮಾನಸ್ತೋಕೇತನಗೇ ಮಾನ ಆಯುಷಿ ಮಾನೋ ಗೋಷು ಮಾನೋ ಅಶ್ವೇಷು ದೇರಿಷಃ ವೇದಾನ್ಮಾನೋ ರುದ್ರಭಾಮಿತೋ ಮದೇರ್ ಅವಿಷ್ಮಂತೋ ನಮಸಾ ವಿಧೇಮತೆ ಆರಾತ್ಯೇ ಗೋಗ್ರಮುತ ಪೌರುಷಗ್ನೇ ಕ್ಷಯದ್ವೀರಾಯ ಸುಂ ನಮಸ್ಮೇತೆ ಅಸ್ತು ರಕ್ಷಾಜನೋ ಅಧಿಜ ದೇವ ಬ್ರೂಯತಾಜನ ಶರ್ಮ ಯಚ್ಚದ್ವಿಪರುಹಾ ಸುಹಿಶ್ರುತಂ ಗತ್ತ ಸತಂ ಯುವಾನಂ ಮೃಗನ್ನ ಭೀಮೌಪಹತೃಮುಗ್ರಂ ಮೃಡಾಜ ವಿದ್ರೇ ರುದ್ರತ್ತವಾನೋ ಅನ್ಯಂತೆ ಅಸ್ಮನ್ನಿವ ಪಂತು ಸೇನಾ ಪರಿಣೋ ರುದ್ರಸ್ಯ ಹೇದರ್ವಣತ್ವ ಪರಿತ್ವೇಷಸ್ಯ ದುರ್ಮದಿರಘಾಯೋ ಅವಸ್ಥಿರಾ ಭಗವದ್ಭ್ಯಸ್ತನುಶ್ವಮೇಧತ್ತೋಕಾಯತನಯಾಯ ಮೃಡಯ ಮೀಧುಷ್ಟಮಜಿಪತಮಜಿಪೋ ನ ಸುಮನಾ ಭವ ಪರಮೇ ವೃಕ್ಷ ಆಯುಧನ್ ನಿಧಾಯ ಕೃತ್ಯಂ ಪದಾನಮಾಚರ ಪಿನಾಕಂ ಬಿಭ್ರದಾಗಹಿ ವಿಕಿರಿತ ವಿಲೋಕಿತ ನಮಸ್ತೆ ಅಸ್ತು ಭಗವಃ ಯಾತ್ತೆ ಸಹಸ್ರ ಗುಂಹೇತಯೋನ್ಯಮಸ್ಮನ್ಯವಂತು ತಾ ಸಹಸ್ರಾಣಿ ಸಹಸ್ರತಾ ಬಾಹುವೋತ್ಸವ ಹೇತಯಃ ತಾಸಾಮೀಶಾನೋ ಭಗವಪ್ಪರಾಚೇನಾ ಮುಖಾಕೃತಿ ಸಹಸ್ರಾಣಿ ಸಹಸ್ರಜೋಗೇ ರುದ್ರಾ ಅಧಿಭೂಮ್ಯಾ ತೇಷಾಗುಂ ಸಹಸ್ರಯೋಜನೆ ಬಧನ್ವಾನಿ ತನ್ಮಸೇ ಅಸ್ಮಿನ್ ಮಹತ್ಯರ್ನವೇಗೇಂದರಿಕ್ಷೇ ಭವಾ ಅಧಿ ನೀಲಗ್ರೀವಾಶಿತಿ ಕಂಠಾ ಶರ್ವಾ ಅಧಃ ಕ್ಷಮಾಚರಾಗ ನೀಲಗ್ರೀವಾಶಿತಿ ಕಂಠಾದಿವಗುಂ ರುದ್ರಾ ಉಮಶ್ರಿತಾಗ ಯೇ ವೃಕ್ಷೇಷು ತಸ್ಮಿಂ ಜರಾ ನೀಲಗ್ರೀವಾ ವಿಲೋಹಿತಾಗ ఏభూతానామధిపతయో విశికాదక్కవర్దినః ఏ అన్నేషు విభిద్యంతి పాత్రేషు పిపదో జనాన్ ఏ పథాంపతి రక్షయైలభృతాయభ్యుదః ఏ తీర్థాని ప్రజలంది శృగావంతో నిషంగిణః ఏతావంతశ్చ భూయాగుందశ్చ దిశో రుద్రావిదస్తిరే తేషాగుం సహస్రయోజనే బధన్వాని తన్మసే నమో రుద్రేభ్యో యే పృథివ్యాం యే అంతరిక్షే దివి శావన్నం వాతో వరుషమిషవస్తేభ్యో దశ ప్రాచేర్దశ దక్షిణా దశ ప్రదేచేర్దశోదేచేర్దశోర్ధ్వాస్తేభ్యో నమస్తే నో మృడయంతు విష్ణో యశ్చ నో ద్వేష్టితం భోజం మే దధామి త్రంబకం యజామహే సుగంధిం పుష్టివర్ధనం ఉర్వారుకమివ బంధనాన్ మృత్యోర్ముక్షీయమామృతాత్ యో రుద్రో అగ్నవ్యో అప్సూయ ఓషధీషు యో రుద్రో విశ్వభువనాదివేశ తస్మై రుద్రాయ నమో అస్తు ఏతే సహస్రమయుతం పాశా మృత్యో మత్యాయ హంతవే తాన్యజ్ఞస్య మాయయా సర్వానవయజామహే మృత్యవేత్ స్వాహా మృత్యవేత్ స్వాహా ప్రాణానాం గ్రంథిరసి రుద్రో మా విశాంతకః తేనాన్నేనాప్యాయ స్వా నమో రుద్రాయ విష్ణవే మృత్యుర్మే పాహి తముష్టు హియత్సృషస్సుతన్మాయో విశ్వస్య క్షయతి భేషజస్య యశ్వా మహేతో మనసాయ రుద్రం నమోభిర్దేవమసురందువస్య అయం మే హస్తో భగవానయం మే భగవత్తరః అయం మే విశ్వభేషజోయగు శివాభిమరుషణః ఓం శాంతి శాంతి శాంతిః ఓం అగ్నా విష్ణో సజోష సేవా వర్ధంతు వాంగిరః ద్యుమ్నైర్వాజేభిరాగతం వాజశ్చ మే ప్రసవశ్చ మే ప్రగతిశ్చ మే ప్రసితిశ్చ మే ధీతిశ్చ మే క్రతుశ్చ మే స్వరశ్చ మే శ్లోకశ్చ మే శ్రావశ్చ మే శ్రుతిశ్చ మే జ్యోతిశ్చ మే శుభశ్చ మే ప్రాణశ్చ మే పానశ్చ మే వ్యానశ్చ మే శుశ్చ మే చిత్తం చ మాధీతం చ మే వాక్చ మే మనశ్చ మే చక్షుశ్చ మే శ్రోత్రం చ మే దక్షశ్చ మే బలం చ మోజశ్చ మే సహశ్చ మాయుశ్చ మే జరా చ మాత్మా చ మే తనుశ్చ మే శర్మ చ మే వర్మ చ మేంగాని చ మే స్థాని చ మే పరోగంషి చ మే శరీరాణి చ మే జ్యేష్ఠ్యం చ మాధిపత్యం చ మే మన్యుశ్చ మే భామశ్చ మేమశ్చ మేంభశ్చ మే జేమా చ మే మహిమా చ మే వరిమా చ మే ప్రథిమా చ మే వష్మా చ మే ద్రాహుయా చ మే వృద్ధం చ మే వృద్ధిశ్చ మే సత్యం చ మే శ్రద్ధా చ మే జగచ్చ మే ధనం చ మే వశశ్చ మే త్విషిశ్చ మే క్రీడా చ మే మోదశ్చ మే जातं च मे जनिष्यमानं च मे सूक्तं च मे सुकृतं च मे वित्तं च मे वेद्यं च मे भूतं च मे भविष्यत् च मे सुगं च मे सुपथं च मरुद्धं च मरुद्धिश्च मे क्लिप्तं च मे क्लुप्तिश्च मे मतिश्च मे सुमतिश्च मे शञ्च मे मगश्च मे प्रियं च मेनु कामश्च मे कामश्च मे सौमनसश्च मे भद्रं च मे श्रेयश्च मे वश्यश्च मे यशश्च मे भगश्च मे द्रविणं च मे यन्ता च मे धत्ता च मे क्षेमश्च मे धृतिश्च मे विश्वं च मे महश्च मे संविच्च मे ज्ञात्रं च मे सोश्च मे प्रसोश्च मे क्षीरं च मे लयश्च मरुतं च मे मृतं च मे यक्ष्मं च मे नामयच्च मे जीवातुश्च मे दीर्घायुत्वं च मे न मित्रं च मे भयं च मे सुगं च मे शयनं च मे सुषा च मे सुधिनं च मे ऊर्च मे सोन्द्रता च मे पयश्च मे रसश्च मे घृतं च मे मधु च मे सग्धिश्च मे सपेतिश्च मे कृशश्च मे वृष्टिश्च मे जैत्रं च म औद्भिद्यं च मे रयिश्च मे रायश्च मे पुष्टं च मे पुष्टिश्च मे विभु च मे प्रभु च मे बहु च मे भूयश्च मे पूर्णं च मे पूर्णतरं च मे क्षितिश्च मे कोयवाश्च मे नं च मे शुच्च मे विहयश्च मे यवाश्च मे माषाश्च मे त्रियाश्च मे मुद्गाश्च मे खल्वाश्च मे गोधूमाश्च मे मसुराश्च मे प्रियङ्गवश्च मे नवश्च मे श्यामाकाश्च मे नीवाराश्च मे अश्वा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे शिखराश्च मे वनस्पतयश्च मे हिरण्यं च मे यश्च मे शेषं च मे रपुश्च मे श्यामं च मे लोहं च मे अग्निश्च म आपश्च मे विरुधश्च म ओषधयश्च मे कृष्टपच्यं च मे कृष्टपच्यं च मे ग्राम्याश्च मे पशव आरण्याश्च यज्ञेन कल्पन्तां वित्तं च मे वित्तिश्च मे भूतं च मे भूतिश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मे अर्थश्च म एमश्च म इतिश्च मे गतिश्च मे अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे पूषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे त्वष्टा च म इन्द्रश्च मे धाता च म इन्द्रश्च मे विष्णुश्च म इन्द्रश्च मे श्विनौ च म इन्द्रश्च मे मरुतश्च म इन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे पृथिवी च म इन्द्रश्च मे अन्तरिक्षं च म इन्द्रश्च मे द्यौश्च म इन्द्रश्च मे दिशश्च म इन्द्रश्च मे मूर्धा च म इन्द्रश्च मे प्रजापतिश्च म इन्द्रश्च मे अगुंसश्च मे रश्मिश्च मेधाभ्यश्च मेधिपतिश्च म उपागुंसश्च मेऽन्तर्यामश्च म ऐन्द्रवायवश्च मे मैत्रावरुणश्च म आश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे मन्त्रे च म आग्रयणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च मरुतुग्रहाश्च मे दिग्राह्याश्च म ऐन्द्राग्नश्च मे वैश्वदेवश्च मे मरुत्वदीयाश्च मे माहेन्द्रश्च म आदित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे पाद्मीभतश्च मे आर्योजनश्च मे इद्मश्च मे बर्हिश्च मे वेदिश्च मे धिष्णीयाश्च मे सृचश्च मे चमसाश्च मे ग्रावाणश्च मे स्वरवश्च म उपरवाश्च मे दिशवने च मे द्रोणकलशश्च मे वायव्यानि च मे पूतभृच्च म आधवनीयश्च म आग्नेयध्वं च मे हविर्धानं च मे गृहाश्च मे सदश्च मे पुरोडाशाश्च मे पचताश्च मे बभृतश्च मे स्वगाकारश्च मे अग्निश्च मे घर्मश्च मेऽर्कश्च मे सूर्यश्च मे प्राणश्च मे श्वमेधश्च मे पृथिवी च मे दितिश्च मे दितिश्च मे द्यौश्च मे शक्वरीरङ्गुलयो दिशश्च मे यज्ञेन कल्पन्तामृक् च मे साम च मे स्तोमश्च मे यजुश्च मे दीक्षा च मे तपश्च मरुतश्च मे व्रतम् च मे होरात्रयोर्वृष्ट्या बृहद्रतन्तरे च मे यज्ञेन कल्पेताम् गर्भाश्च मे वत्साश्च मे त्रयभिश्च मे त्रयवे च मे दित्यवाच्च मे दित्यौ हि च मे पञ्चाविश्च मे पञ्चावे च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाच्च मे तुर्यौ हि च मे पष्टवाच्च मे पष्टौ हि च म उक्षा च मे वशा च मऋषभश्च मे वेहञ्च मे नड्वाञ्च मे धेनश्च म आयुर्यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पतामपानो यज्ञेन कल्पताम् व्यानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पता गुश्रोत्रम् यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाग्यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पताम् यज्ञो यज्ञेन कल्पताम् एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च म एकविगुंशतिश्च मे त्रयोविगुंशतिश्च मे पञ्चविगुंशतिश्च मे सप्तविगुंशतिश्च मे नवविगुंशतिश्च म एकत्रिगुंशच्च मे त्रयस्त्रिगुंशच्च मे चतस्रश्च मे ष्टौ च मे द्वादश च मे षोडश च मे विगुंशतिश्च मे चतुर्विगुंशतिश्च मे सा विगुंशतिश्च मे द्वात्रिगुं षट्च मे षट्रिगुं षट्च मे चत्वारिगुं षट्च मे चतुश्चत्वारिगुं षट्च मेश्चाचत्वारिगुं षट्च मे वाचश्च प्रसवश्चापिजश्च क्रतुश्च शुभश्च मूर्धा च व्यश्नेयश्चान्द्यायनश्चान्द्यश्च भुवनश्च भुवनश्चाधिपतिश्च इडा देवहोर्मनुर्यज्ञनि बृहस्पतिरुक्ता मदानि सगुंसि षद्विश्वे देवासोक्तवाच पृथिवीमातर्मा माहिगुंसि मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमतीम् देवेभ्यो वाच मुद्यासगुम् शुश्रूषेण्या मनुष्येभ्यस्तम् वा देवा अवन्तु शोभाय पितरो नु मदन्तु ॐ शान्ति शान्ति शान्तिः ॐ तच्चञ्योरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे शञ्चतुष्पदे ॐ शान्ति शान्ति शान्तिः सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् स्वभूमिम् विश्वतो भृत्वा अत्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदगुम् सर्वम् यद्भूतम् यच्च भव्यम् उदामृतत्वस्येषानः यदन्नेनातिरोहति एतावानस्य महिमा अथो ज्यायागश्च पुरुषः पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतम् दिवे त्रिपादोऽध्व उदयत्पुरुषः पादोऽस्येहाभवात् पुनः ततो विश्वम् चक्रामत् शासनानशने अभि तस्मात् विराडजायत विराजो अधिपुरुषः स जातो अत्यरिच्यत पश्चाद्भूमिमतो पुरः यत्पुरुषेण हविषा देवा यज्ञमतन्वता वसन्तो अस्यासीराज्यम् ग्रीष्म इद्मः शरद्धभिः सप्तास्यासन् परिधयः त्रिसप्त समिध कृताः देवा यद्यज्ञम् तन्वानाः अबध्नन् पुरुषम् पशुम् तञ्यज्ञम् बर्हिषि प्रोक्षण् पुरुषम् जातमग्रतः तेन देवा अयजन्त साध्यारुषयश्च ये तस्माद्यज्ञात् सर्वहुतः सम्भृतम् भृषदाज्यम् पशोगस्तागश्चक्रे वायव्यान् आरण्यान् ग्राम्याश्च ये तस्माद्यज्ञात् सर्वहुतः ऋचः सामानि जज्ञिरे छन्दागुंसि जज्ञिरे तस्मात् यजुस्तस्मादजायत तस्मादश्वा अजायन्त एकेजो भजादतः गावो हजज्ञिरे तस्मात् तस्मा जाता अजावयः यत्पुरुषं यददुः कदिधा व्यकल्पयन् मुखं किमस्य कौ बाहु का ऊरुपादा उच्येते ब्राह्मणोऽस्य मुखमासीत् बाहुराजन् यः कृतः ऊरु तदस्य यद्वैष्यः पद्भ्यागुं शूद्रो अजायत चन्द्रमा मनसो जातः चक्षुः सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्यासीदन्तरिक्षम् शीर्ष्णोऽध्योऽस्तमवर्तत पद्भ्याम् भूमिर्दिश श्रोत्रात् तथा लोकागुमकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचित्यधीरः नामानि कृत्वाभिवदन् यदास्ते धाता पुरस्ताद्यभूता जहार शक्रः प्रविद्वान् प्रदिशश्च दस्रः तमेवम् विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् ते हनाकम् महिमानः सजन्ते यत्र पूर्वे साध्या सन्ति देवाः अद्भ्यः सम्भूतः पृथिव्यैरसाश्च विश्वकर्मणः समवर्तताधि तस्य त्वष्टा विदद्रूपमेति तत्पुरुषस्य विश्वमाजानमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् तमेवम् विद्वानमृत इह भवति नान्यः पन्था विद्यते यनाय प्रजापतिश्चरति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य धीरा परिजानन्ति योनिम् मरीचीनाम् पदमिच्छन्ति वेदसः यो देवेभ्य आतपति यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमो रुचाय ब्राह्मये रुचम् ब्राह्मम् जनयन्तः देवा अग्रे तदब्रुवन् यस्त्वैवम् ब्राह्मणो विद्यात् तस्य देवाः शन्वशे ह्रेश्च ते लक्ष्मीश्च पत्न्यौ अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्यात्तम् इष्टम् मनिषाणा अवम् मनिषाणा सर्वम् मनिषाणा तच्छञ्योरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे शञ्चतुष्पदे ॐ शान्ति शान्ति शान्तिः ॐ अत्रिणात्वा कृमे हन्मे कण्वेन जमदग्निना विश्वावसोर्ब्रह्मणाहतः कृमीणागुम् राजा अप्येषागस्त कपतिर्हतः अधो माताधो पिता अधो स्थूराः अधो क्षुद्राः अधो कृष्णा अधो श्वेताः अधो आशातिकाघताः श्वेताभिः सह सर्वे हताः आहरावद्य श्रुतस्य हविषो यथा तत्सत्यम् यदमुह्यमस्य जम्भयोः आदधामि तथा हि तत् घण् फण् व्रसे ॐ शान्ति शान्ति शान्तिः ॐ अग्निमीले पुरोहितम् यज्ञस्य देवमृत्युजम् होताकारम् व्यग्नधातवम् ऋग्वेदात्मने सूर्यनारायणस्वामिने नमः इषेत्तोर्जेत्त्वा वायवस्तोपायवस्तदेवो वः सविता प्रार्थयतु श्रेष्ठतमाय कर्मणे यजुर्वेदात्मने सूर्यनारायणस्वामिने नमः अग्नायाहि वेदये घृणादो भव्यदातये निहोता दत्से वर्हिषे सामवेदात्मने सूर्यनारायणस्वामिने नमः शन्नो देवेरभिष्टय आपो भवन्तु पीतये शय्योरभिश्रवन्तु नः अथर्ववेदात्मने सूर्यनारायणस्वामिने नमः घृणिः सूर्य आदित्यो न प्रभावात्यक्षरम् मधुक्षरन्ति तद्रसम् सत्यम् वै तद्रसमापो ज्योतिरसोऽमृतम् ब्रह्मभोर्भुवस्सुवरो छायासुवर्चलाम् वासमेतत् श्रीसूर्यनारायणस्वामिने नमः तरणिर्विश्वदर्शतो ज्योतिष्कृतसि सूर्य विश्वमाभासिरोचनम् उपयामगृहीतोऽसि सूर्याय त्वा भ्राजस्वत एष ते योनिसूर्याय त्वा भ्राजस्वते छायासुवर्चलाम् वासमेत श्रीसूर्यनारायणस्वामिने नमः ॐ भ्रा उद्यन्नद्य मित्रमः मित्राय नमः ॐ ह्रीं आरोहन्नुत्तरान्दिवम् रवये नमः ॐ ह्रूं हृद्रोगम् मम सूर्य सूर्याय नमः ॐ ह्रैं हरिमाणम् च नाशय भानवे नमः ॐ ह्रौ शुकेषु मे हरिमाणम् खगाय नमः ॐ ह्रः रोपणाकासु दत्मसि ओष्णे नमः ॐ ह्राम् अधोहारिद्रवेषु मे हिरण्यगर्भाय नमः ॐ ह्रीं हरिमाणम् निदत्मसि मरीचये नमः ॐ ह्रों उदगादयमादित्यः आदित्याय नमः ॐ ह्रैं विश्वेन सहसा सखा सवित्रे नमः ॐ ह्रौं द्विषन्तम् मम रन्धयन् अर्काय नमः ॐ ह्रः मो शतोरथम् भास्कराय नमः ॐ ह्रां ह्रीं उद्यन्नद्यमित्रमहः आरोहन्नुत्तरान्दिवम् मित्ररविभ्याम् नमः ॐ ह्रों ह्रैं हृद्रोगम् मम सूर्य हरिमाणम् च नाशय सूर्यभानुभ्याम् नमः ॐ ह्रौं ह्रः शुकेषु मे हरिमाणम् रोपणाकासु दध्मसे खगपोषभ्याम् नमः ॐ ह्रां ह्रीं अधोहारिद्रवेषु मे हरिमाणम् निधत्मसे हिरण्यगर्भमरीचिभ्याम् नमः ॐ ह्रों ह्रैं उदगादयमादित्यः विश्वेन सहसा सह आदित्यसवितृभ्याम् नमः ॐ ह्रौं ह्रः दिशन्तम् मम रन्धयन् मो अहम् दिशतो रथम् अर्कभास्कराभ्याम् नमः ॐ ह्रां ह्रीं ह्रों ह्रैं उद्यन्नद्यमित्रमहः आरोहन्नुत्तरान्दिवम् हृद्रोगम् मम सूर्य हरिमाणम् च नाशय मित्ररविसूर्यभानुभ्यो नमः ॐ ह्रौं ह्रः ह्रां ह्रीं शुकेषु मे हरिमाणम् रोपणाकासु दध्मसे अधोकारिद्रवेषु मे हरिमाणम् निधत्मसे खगपोषहिरण्यगर्भमरीचिभ्यो नमः ॐ ह्रों ह्रैं ह्रौं ह्रः उदगादयमादित्यः विश्वेन सकसा सका दिशन्तम् मम रन्धयन् मो अहम् दिशतो रथम् आदित्यसवित्रर्कभास्करेभ्यो नमः ॐ ह्रां ह्रीं ह्रों ह्रैं ह्रौं ह्रः उद्यन्नद्यमित्रमहः आरोहन्नुत्तरान्दिवम् हृद्रोगम् मम सूर्य हरिमाणम् च नाशय शुकेषु मे हरिमाणम् रोपणाकासु दध्मसे मित्ररविसूर्यभानुगगपोषभ्यो नमः ॐ ह्रां ह्रीं ह्रों ह्रैं ह्रौं ह्रः अतोहारिद्रवेषु मे हरिमाणम् निधत्मसे उदगादयमादित्यः विश्वेन सहसा सह दिशन्तम् मम रन्धयन् मो अहम् दिशतो रथम् हिरण्यगर्भमरीच्यादित्यसवित्रर्कभास्करेभ्यो नमः ॐ ह्रां ह्रीं ह्रों ह्रैं ह्रौं ह्रः ॐ ह्रां ह्रीं ह्रों ह्रैं ह्रौं ह्रः उद्यन्नद्यमित्रमहः आरोहन्नुत्तरान्दिवम् हृद्रोगम् मम सूर्य हरिमाणम् च नाशय शुकेषु मे हरिमाणम् रोपणाकासु दध्मसे अधोकारिद्रवेषु मे हरिमाणम् निधत्मसे उदगादयमादित्यः विश्वेन सहसा सह दिशन्तम् मम रन्धयन् मो अहम् दिशतो रथम् मित्ररविसूर्यभानुगगपोषहिरण्यगर्भमरीच्यादित्यसवित्रर्कभास्करेभ्यो नमः आदित्यो वा एष एतन्मण्डलम् तपति तत्र सार्चस्तदृचा मण्डलगुम् सर्चा लोकोथयगेष एतस्मिन्मण्डलेऽर्चर्देप्यते तानि सामानि ससाम्ना लोकोथयगेष एतस्मिन्मण्डलेऽर्चिषि पुरुषस्तानि यजो పుంసి సయజుషా మండలగు సయజుషాం లోక సైషాత్రయ్యేవ విద్యాతపతి యకేషోంతరాదిత్యే హిరణ్మయ పురుషః ఛాయాసు వచ్చలాం వాసమేద శ్రీ సూర్య నారాయణ స్వామినే నమః ఆదిత్యో వై తేజ ఓజో బలం యశశ్చక్షుశ్రోత్రమాత్మా మనోమన్యుర్మనుర్మృత్యుః సత్యో మిత్రో వాయురాకాశ ప్రాణో లోకపాలః కిం గం తత్సత్యమన్నమమృతో దేవో విశ్వ కతమస్వయంభు బ్రహ్మైతదమృత ఏష పురుష ఏష భూతానామధిపతి బ్రహ్మణస్యాయుజ్యగుంసలోకతాపాప్నోత్యేతాసామేవ దేవతానాగుం సాయుజ్యగుం సాశ్రితాగుం సమానలోకతామాప్నోతి ఏవం వేదేత్యుపనిషత్. ఛాయాసువచ్చలాం వాసమేద శ్రీ సూర్యనారాయణ స్వామినే నమః. ఓం శాంతి శాంతి శాంతి. ఓం తేజోసి తత్తే ప్రయచ్ఛామి తేజస్వదస్తు మే ముఖం తేజస్వచ్ఛిరో అస్తు మే తేజస్వాన్ విశ్వత ప్రత్యం తేజసా సంవిమా ఓజోసి తత్తే ప్రయచ్ఛామి ఓజస్వదస్తు మే ముఖం ఓజస్వచ్ఛిరో అస్తు మే ఓజస్వాన్ విశ్వత ప్రత్యం ఓజసా సంవిమా పయోసి తత్తే ప్రయచ్ఛామి పయస్వదస్తు మే ముఖం పయస్వచ్చిరో అస్తు మే పయస్వాన్ విశ్వత ప్రత్యం పయసా సంవిమా ఆయురసి తత్తే ప్రయచ్ఛామి ఆయుష్మదస్తు మే ముఖం ఆయుష్మచ్చిరో అస్తు మే ఆయుష్మాన్ విశ్వత ప్రత్యం ఆయుషా సంవిబ్రద్ధిమా ఇమమగ్ర ఆయుషే వచ్చసే కృధి ప్రియగుం రేదో వరుణ సోమరాజన్ మా దేవాస్మా అధిదేశర్మయచ్చ విశ్వే దేవాజలదశ్చిర్యదాసత్ ఆయురసి విశ్వాయురసి సర్వాయురసి సర్వమాయురసి యతో వాతో మనోజవాః యతః క్షరంతి సింధవః తాసాకాం త్వా సర్వాసాగుం రుచ అభిషించా వివక్షసా సముద్ర ఇవాసి గంహనాః సోమగివాస్యతాభ్యః అగ్నిరివ విశ్వత ప్రత్యం సూర్య ఇవ జ్యోతిషా విభోః అపాన్యోద్రవణేరస తమహమస్మాయణాయ తేజసే బ్రహ్మవర్చసాయ గృహామి అపామ్య ఊర్వోరస తమహమస్మాయణాయ ఓజసే వీర్యాయ గృహామి అపామ్యో మధ్యతోరస తమహమస్మాయణాయ పుష్టై ప్రజననాయ గృహామి అపామ్యో యజ్ఞయోరస తమహమస్మాయణాయ ఆయుషే దీర్ఘాయుత్వాయ గృహామి స్వస్తి ప్రజాభ్య పరిపాలయంతా న్యాయేన మార్గేణ महीम् महीषाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति शान्ति